अथ तृतीयोऽध्याय अर्जुनायुवाच जयसी चेत् कर्मणस्ति मता बुद्धिर्जनार्दन तत्किं कर्मणि घोरिमं नियोजयसि केशवं व्यामिश्रेणैव वाक्येन बुद्धिं मोहयसीव मे तदेकं वद निश्चित्त येन श्रेयोऽहमाप्नुयम् श्रीभगवानुवाच लोकेशमिन् द्विविधा निष्ठा पुरा प्रोक्ता मया नघ ज्ञानयोगेन सांख्यानां कर्मयोगेन योगिनां न कर्मणामनारम्भा नैष्कर्म्यं पुरुषो श्रुते न च शन्यादेव सिद्धिं समधिगच्छति न हि कश्चित् क्षणमपि जातु तिष्ठत्त कर्मकृत् कार्यते झवशकर्म सर्वप्रकृतिजैर्गुणैः कर्मेन्द्रियाणि संयम्याम् यायास्ते मनसा स्मरन् इन्द्रियार्थन् विमूढात्मा मिथ्याचारस्य उच्यते ज्वस्तिन्द्रियाणि मनसा नियम्या रभतेऽर्जुन कर्मेन्द्रियैः कर्मयोगा मशक्तस्य विशिष्यते नियतं कुरु कर्मत्वं कर्मज्ञायोजकर्मणः शरीरयात्रापि च ते न प्रसिद्धेद कर्मणः यज्ञार्थात् कर्मणोऽन्यत्र लोकोऽयं कर्मबन्धनः तदर्थं कर्म कौन्तेय मुक्तसङ्गः समाचर सह यज्ञः प्रजा सृष्ट्वा पुरोवाच प्रजापति अनेन प्रसविष्यध्य देशावुत्तिष्ठ कामधु देवान् भावयतानेन ते देवा भावयन्तु वा परस्परं भावयन्त श्रेयः परमवाप्स्यत इष्टान् भोगान् हि वो देवा दास्यन्ते यज्ञभाविता तैर्दत्तान् प्रदायैभ्यो यो भुक्तेस्तेन एव स यज्ञशिष्टाशिनः सन्तु मुच्यन्ते सर्वकिल्लिशैः भुञ्जते ते त्वघङ्गपापा ये पचन्त्यात्मकारणात् अन्नाद्भवति भूतानि पर्यन्यादन्नसम्भवः यज्ञादभवति पर्यन्यो यज्ञः कर्मसमुद्भवः कर्म ब्रह्मोद्भवं विद्धि ब्रह्माक्षरसमुद्भवं तस्मात् सर्वगतं ब्रह्म नित्यं यज्ञे प्रतिष्ठितम् एवं प्रवर्तितं चक्रं नानुवर्तयतीह यः अघायुरिन्द्रियारामो मोघं पार्थ सजीवति जस्त्वादमरतिरेव स्याद् आत्मतृप्तश्च मानवः आत्मन्येव च सन्तुष्टस्तस्य कार्यं न विद्यते नैव तस्य कृतेनार्थो नाकृतेनेह कश्चन न चास्य सर्वभूतेषु कश्चिदर्थ बपाश्रय तस्मादशक्तः सततं कार्यं कर्म समाचर अशक्तो ज्याचरन् कर्म परमापनोति पुरुषः कर्मणैव संसिद्धि मा स्थिता जनकादय लोकसङ्ग्रहमेवापि सम्पश्यन् कर्तुमर्हसि यद्यद् आचरति श्रेष्ठ तत्तदेव तरो जनः स यत् प्रमाणं कुरुते लोकस्तदनुवर्तते न मे पर्थास्ति कर्तव्यं त्रिषु लोकेषु किञ्चन नानवाप्त्यमवाप्तव्यं वर्त एव च कर्मणि यदिज्झहं न वर्तेयं जातु कर्मन्नतन्द्रितः मम वर्तानुवर्तन्ते मनुष्यः पार्थ सर्वशः उच्छिदेयूरिमे लोका न कुर्यं कर्म चेदहं शङ्करस्य च कर्तास्य उपहन्यामि मा प्रजा शक्तः कर्मण्यविद्वांसो यथा कुर्वन्ति भारत कुर्यात् विद्यांस्तथा सत्त शिखिरिशूर्लोकसङ्ग्रहं न बुद्धिभेदं जनयेदज्ञानां कर्मसङ्गिनां योषयेत् सर्वकर्माणि विद्वान् युक्तः समाचरन् प्रकृते क्रियमाणानि गुणैः कर्माणि सर्वशः अहङ्कारविमूढात्मा कर्ताहमिति मन्यते तत्त्वमित्तु महाबाहो गुणाकर्मविभागयो गुणागुणेषु वर्तन्त इति मत्वा न सज्जते प्रकृतेर्गुणसङ्गमूढा सज्जन्ते गुणकर्मसु तन्न कृष्ण विदो मन्दान् कृष्ण भिन्न विचालयेत् मयि सर्वाणि कर्माणि सङ्गनश्याध्यात्मचेतसा निराशिर्निर्ममो भूत्वा युद्धस्व विगतज्जर ये मे मतमिदङ्गनित्त मनो तिष्ठन्ति मानवा श्रद्धावन्तो न शूयन्तो मुच्यन्ते ते विकर्मभिः जेते तदभ्यसूयन्तो नानुतिष्ठन्ति मे मतं सर्वज्ञानविमूढांस्तान् विद्धि नष्टा न चेतसः सदृशं चेष्टते स्वस्या प्रकृतिर्ज्ञानवानपि प्रकृतिं यान्ति भूतानि निग्रहः किं करिष्यति इन्द्रियस्येन्द्रियस्यार्थे रागद्वेषौ व्यवस्थितौ तयोर्न वशमागच्छेत् तौ झस्य परिपन्थिनौ श्रेयान् स्वधर्मो विगुणः परधर्मात् स्वनुष्ठितात् स्वधर्मे निधनं श्रेया परधर्मो भयाव अर्जुनायुवाच अथ केन प्रयुक्तोऽयं पापं चरति पुरुषः अनिच्छन्नपि वाष्णेय बलादिपनियोजितः श्रीभगवानुवाच कामयेश क्रोधयेश रजोगुणसमुद्भव महाशनु महापाप्मा विद्धेनामिह वैरिणम् धूमेन ब्रियते बह्ने यथा दर्शो मलेन च यथुल्लेन मृतो गर्भस्तथा तेनेदमावृतम् आवृतं ज्ञानमेतेन ज्ञानिनो नित्यवैरिणा कामरूपेण पौन्तेया दुष्पुरेणानलेन च इन्द्रियाणै मनो बुद्धि रस्याधिष्ठानमुच्यते हेतुैर्विमुहयत्तेष ज्ञानमावृत्तदेहिनं तस्मात् त्वमिन्द्रियान्यादौ नियम्य भरतर्षव पाप्मानं प्रयिज्येनं ज्ञानाभिज्ञाननाशनम् इन्द्रियाणि परण्याहुरिन्द्रियेभ्यः परङ्गमनः मनसस्तु परा बुद्धिर्यो बुद्धिः परतस्तु स एवं बुद्धिः परङ्गबुद्ध्वा संस्तभ्यात्मानमात्मना जहि शत्रुं महाबाहु कामरूपं दुरासदम् ॐ तत्सत् इति श्रीमहाभारते शतसाहस्रं संहितायां वैयासिक्यां भीष्मपर्वणि श्रीमद्भगवद्गीतासूपनिषदसु ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे कर्मयोगो नाम तृतीयो